एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। विजयादशमी पर्वणः अन्तर्गतम् अद्य नवरात्रस्य फूलपाती नाम्ना प्रसिद्धायां सप्तम्यां तिथौ देशस्य सर्वेषु शक्तिपीठेषु देवी मन्दिरेषु च देव्यः दर्शन पूजनार्थं प्रातः कालादेव भक्तजनानां विपुलः सम्मर्दः दृश्यते। अद्य अन्याभि देवीभिश्च विशेषेण कालरात्रि देवी प्रपूज्यते। नवपत्रिकाणां प्रमण्ड प्रवेशनस्य तुलजा भवान्यः यात्रायाश्च शुभमुहूर्त आश्विन शुक्ल सप्तम्यः दिने अद्य प्रातः एकादश कलोत्तर सप्तवादने अस्ति चेत् स्थिरासनस्य समय त्रिचत्वारिंशत् कलोत्तर अष्टवादने अस्तीति च पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितम् वर्तते। अष्टवर्षीयाया कन्याया सरस्वत्याश्च विशेष पूजनम् अद्यतनं प्रात कालिकं कृत्यमस्ति। दिनशेषावसरे देव्य प्रीतये बिल्वशाखा धान्य कचु कदली दाडिमी जयन्ती हरिद्रा मानक अशोकाश्चेति नवपत्रिका समर्प्यन्ते। एता पत्रिका ग्रामवासीभि नगरवासीभिश्च दोलायां संस्थाप्य वाद्य घोष पुरस्सरम् देवी मन्दिरेषु नीयन्ते स्वस्व पूजा गृहेषु संस्थाप्यन्ते छ। परम्परायाः अनुसारेण गोरखा प्रासादस्य दशमी गृहात् आनीताः नवपत्रिकाः अद्यैव हनुमद्वारवर्तिनी दशमी गृहे प्रवेश्यन्ते। इमाः नवपत्रिकाः गोरखास्थानात् धादिङ्ग जनपदस्य जीवनपुरम् यावत् दशमी गृहस्य पूजकेन सहितै मगर जातेः षड्भिः पूजकैः ततः जमलस्थानम् यावत् काष्ठमण्डपात् गतैः पूजकैः दोलायाम् उढ्वा आनीयन्ते। हनुमद्वारात् सहर्षम् सोल्लासम् च गता नवपत्रिका यात्रा जमलस्थाने संस्थापिता इमाः नवपत्रिका हनुमद्वारवर्ती दशमी गृहम् आनयति। नवपत्रिका आनेतुम् वाद्यवृन्दम् गुरुः सैनिकः पञ्चवाद्येन विभूषितः कलशवायिन्यः कन्याः राज्यचिह्न सहितः समूह सांस्कृतिक नृत्य गायन वृन्दम् सर्वकारीय कर्मचारिणः सैनिकः प्रहरिणश्च सम्मिलन्ति। नेपाली सेनया अद्य टुडीखेल स्थाने आयोजितस्य वर्धापन समारोहस्य समापनम् अनु जमलस्थाने संस्थापिता नवपत्रिका हनुमद्वारवर्तिनी दशमी गृहे प्रवेश्यन्ते। नवपत्रिका वर्धापनस्य अवलोकनम् अनु राष्ट्रप्रमुखेण हनुमद्वारे नवपत्रिकाणां दर्शनस्य परम्परा वर्तते। पुष्पपत्रिका वर्धापन समारोहस्य रेडियो नेपालेन प्रत्यक्ष प्रसारणम् विधास्यते। नेपालीनां महतः विजयादशमी पर्वणः कृते राजधान्यः काष्ठमण्डपात् स्वगृहं प्रति गन्तुकामानां जनानां महान् सम्मर्दः अस्ति। राजधान्यः गुङ्गबु कलंकी कोटेश्वर प्रभृतिषु क्षेत्रेषु स्वगृह ग्रामं प्रति गन्तुकामानां जनानां महती पंक्तिः दृश्यते। राष्ट्रपतिना रामचन्द्र पौडेलेन नेपाल विश्वविद्यालय सम्बद्धं विधेयकं प्रमाणीकृतमस्ति। राष्ट्रपतिः पौडेलः नेपालस्य संविधानस्य त्रयोदशोत्तर शततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण विधेयकमिदं प्रमाणीकृतवान् अस्तीति राष्ट्रपति कार्यालयेन ज्ञापितमस्ति। विधेयकमिदं संघीय संसदः द्वाभ्यामपि सदनाभ्यां पारितीकृत्य प्रमाणीकरणाय राष्ट्रपति समक्षं प्रस्तुतमासीत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं प्रधानमन्त्री दैवी प्रकोपोद्धार कोषस्य कृते ह्य आवासीयतर नेपाली संघस्य अन्तर्राष्ट्रिय समन्वय परिषदा एकपञ्चाशत् लक्षाणि रूप्यकाणि प्रदत्तानि सन्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे संघस्य अध्यक्षेण डाक्टर बद्री केसी सहितेन प्रतिनिधिमण्डलेन वित्तमिदं हस्तान्तरितमस्ति। तदवसरे अध्यक्ष डाक्टर केसी सम्प्रत्यैव जलविप्लवेन भूस्खलनेन च विहितानां क्षतेः कारणेन आत्मनः दुःखं आत्मनः खिन्नतां प्रदर्श्य कोषे दत्तस्य वित्तस्यातिरिक्तम् अतिप्रभावितेषु क्षेत्रेषु अतिरिक्तानि एककोटि रूप्यकाणि अपि सहयोगार्थं प्रदास्यन्ते इति असूचयत्। तदवसरे प्रधानमन्त्री ओली विपदः समये मानवीय सहयोगं विदधानं संघं धन्यवादम् अर्पयन् आवासीयतर नेपालाभिजनाः यद्यपि सर्वदैव नेपाला एव विद्यन्ते तथापि वैदेशिक नागरिकता ग्रहणानन्तरं नेपाले राजनैतिकाधिकारः न सम्भवतीति स्पष्टयन् द्वितय नागरिकतायाः समस्यायाः समाधानाय गभीरं विमर्शनम् अपेक्षते इति प्रावोचत्। एवमेव साल ट्रेडिंग संस्थायाः अध्यक्षेण प्रदीपलाल श्रेष्ठेन षष्ठी लक्ष्याणि विद्युत् उत्पादन संस्थायाः अध्यक्षेण सुरेश आचार्येण संस्थातः तत्रत्यानां कर्मचारिणां पक्षतः षड् लक्ष्याणि षट्चत्वारिंशत् सहस्राणि पञ्चशतानि च रूप्यकाणि भारतस्य नेपाल इन्सुरेन्स संस्थातः दशलक्ष्याणि रूप्यकाणि हस्तान्तरितानि सन्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति नेपाल पत्राचार सेवाम आन्तरिकतया अन्तर्राष्ट्रियतया स विद्युतीय व्यापार केन्द्र त्वेन सुदृढीकृत्य अग्रेसर्तुम सर्वकार तत्परोस्ति। विश्व पत्राचार सेवा दिवसस्य अवसरे शुभकामना ददत संचार मन्त्री गुरूङ पत्राचार सेवा माध्यमेन जायमानेन विश्वव्यापिन संचारेण अतिरिक्ततया प्रभावयुतं समय सापेक्षं च विधाय सेवायां विविधीकरणस्य आधुनिकीकरणस्य च आवश्यकता अस्तीति अगदत। पञ्चाशदुत्तरैकशततमे विश्व पत्राचार दिवसस्य अवसरे पत्राचार विभागेन ह्य आयोजिते कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव राधिका अर्याल जनानां सूचना प्रविधौ उपलब्धे कारणात् पत्राचार सेवा प्रम्लिष्टा जातास्तीत्यत पत्राचार सेवायां समयानुकूलां विधातुं बलं दत्तवती। रेडियो नेपालेन दनुवार भाषायां समाचार प्रसारणं प्रारप्स्यते। अधुनावधि विभिन्नेषु चतुर्विंशति भाषासु समाचार प्रसारणं विदधता रेडियो नेपालेन सम्प्रति अन्यस्याम् एकस्यां दनुवार भाषां संयोज्य पञ्चविंशति भाषासु समाचार प्रसारणं विधीयते। रेडियो नेपालेन अस्यैव आश्विन मासस्य त्रिंशे दिवसे दिवात् सपाद त्रिवादने दनुवार भाषायां समाचार प्रसारणं प्रारप्स्यते। सर्वकारस्य प्रवक्तुः संचार सूचना प्रविधि मन्त्रिणः पृथ्वी सुब्बा गुरूङ इत्यस्य प्रमुखातिथ्ये दनुवार भाषायाः समाचारः प्रारप्स्यते इति रेडियो नेपालस्य कार्यकारी निर्देशकः अमरध्वज लामा अज्ञापयत्। तथ्याङ्कानुसारेण नेपाले आसन्न 50,000 जना दनुवार भाषा भाषिणो विद्यन्ते इति समाचारः।